एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्रे रत्नावली शर्मा। रसुवा जनपदे भोटेकोशी नद्याम् दुरा पन्नेन जलप्लवेन महती क्षति विहिता अस्ति। जलप्लवे निपत्य बहवो जना मृता सन्ति। विनाशकारिण जलविप्लवस्य कारणेन मृतानाम् एकोनाशीत्युत्तर शतत्रयाणाम् जनानाम् शवः प्राप्ताः वर्तन्ते। रसुवा जनपदे, धातिङ जनपदे, गोर्खा जनपदे, चितवन जनपदे, तनहु जनपदे च एते शवः प्राप्ताः सन्ति। कतिपयः शवः महिलानां वर्तन्ते, कतिपयः शवः पुरुषाणां वर्तन्ते, कतिपयाश्च शवः बालानां वर्तन्ते। कतिपयः शवः असत्यापिताः क्षेत विक्षेता अवस्थायां प्राप्ताः सन्ति। जलप्लवे निपत्य गोसाईकुण्ड क्षेत्रे मानसरोवर क्षेत्रे गताः कतिपयः पर्यटकाः सम्पर्कविहीनाः सञ्जाताः सन्ति। नेपाल पर्यटन समितेः अनुसारेण भारत, अमेरिका, बेलायत, अस्ट्रेलिया, क्यानाडा, मलेसिया, सिंगापुर, युक्रेन, दक्षिण अफ्रिका, नेदरल्याण्ड प्रभृतिनाम् पञ्चविंशत्यधिकानाम् देशानाम् सप्तविंशत्युत्तरैकशत जना पर्यटका जलप्लवे निपत्य सम्पर्कविहीना सञ्जाता वर्तन्ते। सम्पर्कहीनानाम् जनानाम् अधुनावधि अन्वेषणोद्धार कार्यम् जायमानमस्ति इति प्रहरिणा ज्ञापितम् वर्तते। कतिपयः प्रहरिणः, कतिपयः कर्मचारिणः हाइड्रो पावर इति जलविद्युत् गृहेषु कार्यरताः श्रमिकाः कर्मचारिणश्च जलप्लवे निपतिताः सन्ति। कतिपय जनाः सम्पर्के आगताः वर्तन्ते। रसुवा जनपदस्य भोटेकोशी नद्याम् दुरापन्नस्य जलप्लवस्य कारणेन आहतानाम् संकटापन्नानां च जनानाम् उद्धार कार्यम् जायमानमस्ति। जलप्लवेन प्रभावितेषु क्षेत्रेषु सहयोग सामग्र्यः प्रेषिताः वर्तन्ते। प्रधानमन्त्रिणा बालेन्द्र शाहेन ह्यो जलप्लवेन अत्यधिक प्रभावितस्य नुवाकोट जनपदस्य विदुर नगरपालिकया सहितानां विपदग्रस्त क्षेत्राणां स्थलगतं निरीक्षणं विहितमस्ति। तदवसरे प्रधानमन्त्रिणः समूहेन जलप्लवेन विहितायाः क्षतेः अवलोकनेन सहितं स्थानीय प्रशासनैः, सुरक्षा निकायैः, जनप्रतिनिधिभिश्च सह विस्तृतं विमर्शनं विहितमासीत्। तदवसरे प्रधानमन्त्रिणा शाहेन विस्थापितानां तत्कालमेव सहयोगं विधातुम्, अवरुद्धान् मार्गान् शीघ्रमेव सञ्चालयितुम्, दीर्घकालिक पुनस्थापनायाः कार्यं तीव्रतया कर्तुं च निर्दिष्टमस्ति इति सूचना संचार मन्त्री डा विक्रम तिमिल सिन्हा अज्ञापयत्। स्थलमार्गेण पूर्वाधार विकास मन्त्रिणा सहित नुवाकोट जनपदे प्रस्थित प्रधानमन्त्री शाह प्रभावितानां वसतीनां भौतिकावस्थायाः क्षतेश्च अवलोकनं विधाय काष्ठमण्डपं प्रति प्रत्यावर्तितोऽस्ति। भोटेकोशी नद्याम् दुरापन्नस्य जलप्लवस्य कारणेन सम्भूतायाः क्षतेः अन्वेषणस्य, उद्धारस्य, सहयोगस्य पुनस्थापनायाश्च कृते आहूतेन सर्वदलीयोपवेशेन दशसूत्रात्मकः संकल्पः विहितोऽस्ति। सत्तारूढस्य राष्ट्रिय स्वतन्त्र दलस्य आह्वानेन सिंहप्रासादे उपविष्टस्य सर्वदलीयोपवेशस्य अनन्तरं राजोपादलस्य सभापति रवि लामिछाने राजनैतिकीकरणं विनैव उद्धारस्य सहयोगस्य च कार्यं विधातुम्, आर्थिक संकलने सर्वकारस्य पक्षतः एकद्वार प्रणालीं क्रियान्वयितुं, संवेदनशील सूचनानां प्रवाहाय सर्वै राजनैतिक दलैः सहकार्यं कर्तुं च निर्णीतमस्ति इति अज्ञापयत्। सभापति लामिछाने रीमरदानां वैज्ञानिकाध्ययनस्य, प्रतिवेशिभिः सह संयुक्त प्रयासस्य, विपदः पूर्वसूचना प्रणाल्याः सुदृढीकरणस्य, उत्थानशील पुनर्निर्माणस्य, जलवायु न्यायार्थम् उच्चस्तरीय संयन्त्रस्य संघटनस्य च निर्णयः विहिताः सन्ति इति असूचयत्। उपवेशे गृहमन्त्री सुदन गुरुङ उद्धाराय द्वाविंशतिर् हेलिकप्टर वायुयानानि परिचालितानि सन्ति इति अज्ञापयत्। अर्थमन्त्री डा स्वर्णिम वाग्ले पुनर्निर्माणाय, सहयोगाय, विपद व्यवस्थापनाय च दशाब्जानि रूप्यकाणि विनियोजितानि सन्ति इति अज्ञापयत्। उपवेशे नेपाली कांग्रेस दलस्य सभापति गगन थापा, नेपाली कम्युनिष्ट दलस्य संयोजक पुष्पकमल दाहाल प्रचण्ड, नेकपा एमाले दलस्य महासचिव शंकर पोखरेल, राप्रपा दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन चेत्यादयो नेतार सहभागिन आसन्। राष्ट्रपतिना रामचन्द्र पौडेलेन, उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन च विषयायां परिस्थितौ ऐक्यबद्धतया उद्धाराय सहयोगाय च कार्यं विषमायाम परिस्थितौ ऐक्यबद्धतया उद्धाराय सहयोगाय च कार्यम कर्तुम सर्वे अनुरुद्धा वर्तन्ते। रसुवा जनपदस्य भोटेकोशी नद्यां पुनः जलप्लवस्य संकटः दृष्टोस्ति। ततः सर्वकारेण तटीय क्षेत्राणां जनाः सावधानताम् अवलम्बितुम् अनुरुद्धा वर्तन्ते। जलप्लव पूर्वानुमान महाशाखया ह्य सार्वजनिकृतायां विशेष सूचनायां चीनदेशात् प्राप्तायाः सूचनायाः अनुसारेण कृत्रिमो उपग्रहचित्रस्य माध्यमेन प्रारम्भिकेन विश्लेषणेन च बुधवासरे दुरापन्नस्य जलप्लवस्य मूलस्थाने नद्या अवरोधेन महारदः सञ्जातोस्तीति ज्ञापितम् वर्तते। तस्मिन् हृदे जलस्य स्तरं वर्धमानम् अस्तीत्यतः हृदविस्फोटनस्य सम्भावना अस्तीत्यतः भोटेकोशी नद्यां पुनः जलप्लवस्य सम्भावना विहिता अस्ति। अपरायां सूचनायाः प्रकाशनं यावत् भोटेकोशी नद्याः तटीयक्षेत्राणां जनाः यात्रिणः उद्धारकार्ये संलग्नः जनाः सम्बद्धा जनाश्च विशेषतया सावधानतायै अनुरुद्धा वर्तन्ते। परराष्ट्र मन्त्रालयेन जलप्लवेन प्रभावितानां सम्पर्कविहीनानां वैदेशिकानां जनानाम् अन्वेषणाय उद्धाराय वाणिज्यदूत सहायतायाः कृते च आपत्कालिक प्रतिकार्य समूह संघटितो वर्तते। मन्त्रालयेन संघटितेन आपत्कालिक प्रतिकार्य समूहेन जलप्लवेन प्रभावितानां विलुप्तानां घटनया सह सम्बद्धानां आहतानां जनानां च वैदेशिकानां नागरिकाणां विषये अन्वेषणोद्धारस्य सूचनायाः प्रमाणीकरणाय वाणिज्यदूत सहयोगाय केन्द्रीय समन्वय कार्य निकायस्य रूपेण कार्यम् करिष्यते। अत्रान्तरे स्वास्थ्य खाद्य स्वच्छता मन्त्रालयेन विपदः पश्चात् स्वास्थ्य प्रतिकार्याय विषयगतः विज्ञः निर्धारितः वर्तन्ते। श्रावण शुक्ल पूर्णिमायाः अवसरे अद्य आराष्ट्रम् हिन्दू धर्मावलम्बिनः ऋषि तर्पणि पर्व समायोजयन्ति। पर्वेदम् जनै पूर्णिमा नाम्ना च प्रथितम् वर्तते। अस्मिन् दिने उपवीतिनो जनाः प्रातः ऋषिन् स्मरन्तो निकटवर्तिषु नदीकूपधारा तडाग प्रभृतिषु जलाशयेषु यत्य कुशचन्दन मृत्तिका गोमय अपामार्गहि समन्त्रोच्चारणम् मुहुर्मुहुर् स्नान्ति तदनु अरुन्धत्या सहितान् सप्तर्षिन् सम्पूज्य वैदिक मन्त्रैः सविधि मन्त्रितम् यज्ञोपवितम् रक्षा सूत्रञ्च धारयन्ति। अवसरेऽस्मिन् पर्वतीय क्षेत्रस्य जनाः स्वगुरोः हस्ताभ्याम् तराई प्रदेशस्य जनाः स्वभगिनी हस्ताच्च रक्षा सूत्रम् बध्नन्ति। पौराणिक मान्यतायाः अनुसारेण रक्षाबन्धनस्य सम्बन्ध दानवीय शक्त्या पीडितायाः देवशक्त्या देवराज इन्द्रस्य गुरुणा बृहस्पतिना रक्षाविधानं निर्माय संरक्षणं विहितम् अथ च वामनावतारे विष्णुना दैत्यराजं बलिं वचनबद्धं कारयित्वा त्रिलोकग्रहणस्य स्मृत्या सह सम्बद्धो वर्तते। अस्मिन् दिने कृषिप्रधाने अस्माकं देशे अधुना कृषिकर्मणः समाप्तिमनुवर्षाणां कारणात् शैत्येन प्रभाविते शरीरे पुनः ऊर्जसः प्राप्ते नवबीजाङ्कुरान् सम्मेल्य पक्वं पौष्टिकं क्वाटि नामकं बीजाङ्कुरमिश्रणम् अन्नं भुज्यते। इति समाचारः।